अथ बुधकवचम् अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य कश्यप ऋषिः अनुष्ठुप् छन्दः बुधो देवता बुधप्रीत्यर्थं जपे विनियोगः बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः पीताम्बरधरः पातु पीतमाल्यानुलेपनः कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा नेत्रे ज्ञानमयः पातु स्तोत्रे पातु निशाप्रिय घ्राणां गन्धप्रियः पातु जिह्वां विद्याप्रदो मम कण्ठं पातु विधो पुत्रो भुजौ पुस्तकभूषणः वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः नाभिं पातु सुराराध्यो मद्यं पातु खगेश्वरः जानुनी रोहिणी यस्य पातु जङ्घेऽखिलप्रदः पातु मे बोधनः पातु पातु सौम्योऽखिलं वपुः एतद्धि कवचं दिव्यां सर्वपापप्रणाशनं सर्वरोगप्रशमनं सर्वदुःखनिवारणम् आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनं यः पठे शृणुयाद्वापि सर्वत्र विजयी भवेत् इति श्रीब्रह्मवैवर्तपुराणे बुद्धकवचं सम्पूर्णम्।